इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचिका निधि तिवारी। अथ वार्ताः। प्रधानमन्त्रिणा नरेन्द्रमोदिना अवधानं दत्तं यत् यथा यथा देशः महता परिमाणेन आंकिकीय रूपेण संयोजितो भवति तदा आन्तर्जालिक अपराधस्य भीतिः अपि सततं वर्धमानास्ति इति। अस्य वर्षस्य स्मार्ट इण्डिया हैकथॉन इत्येतस्य भव्यकार्यक्रमे युव नवाचारकैः सह ह्यः दृश्य श्रव्य परान्तर्जालीय माध्यमेन वार्तालापं कुर्वन् प्रधानमन्त्री अवदत् यत् भारतं विश्वस्य प्रमुखांकिकीय अर्थव्यवस्थासु अन्यतम अस्ति इति। युवान्वेषकाणां प्रशंसां कुर्वन् प्रधानमन्त्री अवदत् यत् एकविंशतिशताब्द्याः भारतस्य विषये तेषां सर्वेषां भिन्नदृष्टिः अस्ति। सः इत्यपि अवदत् यत् तेषां समाधानानि भारतस्य भविष्यस्य कृते महत्वपूर्णानि सन्ति तथा च कोटिशः जनानां जीवनं परिवर्तयितुं शक्नुवन्ति। श्रीमोदी पुनः उक्तवान् यत् अद्यतनं भारतं सर्वेषां सामूहिक प्रयासेण एव द्रुतगत्या अग्रे गन्तुं शक्नोतीति। अपि च यदा सः युवान्वेषकैः सह संयोजनाय अवसरम् अवाप्नोत् तदा असौ सर्वदा अनेकानि नूतनानि वस्तूनि जानाति अवगच्छति च इति। विदेशमन्त्री डॉक्टर एस जयशंकर तस्य च संयुक्तारबामीरात देशीय समकक्ष शेख अब्दुल्ला बिन जायद अल नाहियान इत्येष अद्य नवदिल्ल्यां भारत संयुक्तारबामीरातयोः रणनीतिक वार्ताम् आलक्ष्य मन्त्रणां करिष्यतः। अत्रावसरे संयुक्तारबामीरातस्य विदेशमन्त्री मध्याह्ने प्रधानमन्त्रिणा नरेन्द्रमोदिना सहापि मेलनं करिष्यति। यूएई इत्येतस्य उपप्रधानमन्त्री विदेशमन्त्री च चतुर्थ्याः रणनीतिक वार्तायाः अपि च पञ्चदशमं भारत यूएई इत्येतयोः संयुक्तायोगस्य उपवेशने भागग्रहणाय नवदिल्लीं सम्प्राप्तवन्तौ। विदेशमन्त्रालयस्य प्रवक्ता रणधीर जयसवालः एक्स इत्यस्मिन् सामाजिकान्तर्जालपटले अवोचत् यत् तयोः नेत्रयोः इयं यात्रा उभयोः देशयोः कृते सबलतां प्रदास्यति इति। भारतीय रिजर्व बैंक इत्येतस्य गवर्नर इति नवप्रशासकः संजय मल्होत्रा इत्येषः भूराजनीतिक चिन्ता जलवायु परिवर्तनयोः प्रभावित राजनीतिक अनिश्चितताभ्यां समंकिते गतिशीले वैश्विक वातावरणे स्थिरतां निर्मातुं स्थापयितुं च महत्वं सबलतया कथितवान्। कार्यभार ग्रहणानन्तरं ह्यः मुम्बय्यां वार्ताहरान् सम्बोधयन् असौ न्यगादीत् यत् भारतीय रिजर्व बैंक इति नीतिगत प्रसंगेषु स्थिरतायै प्राथमिकता प्रदास्यते इति। विज्ञान प्रौद्योगिकीय राज्यमन्त्री डॉ जितेन्द्र सिंह अभिहितवान् यत् पञ्चत्रिंशदधिक द्विसहस्रतम वर्षं यावत् भारतस्य स्वकीयम् अन्तरिक्षस्थानकं भविष्यति। तत्रैव चत्वारिंशदधिक द्विसहस्रतम वर्ष पर्यन्तम् एकः भारतीयोऽपि चन्द्रमसि गच्छेदिति। ह्यः नवदिल्ल्यां वार्ताहरैः सह सम्भाषमाणः श्रीसिंहः अस्मिन् वार्ताविषये इमां सूचनां कथितवान्। अफगानिस्तानदेशे शरणार्थिविषयक कार्यवाहकमन्त्री खलील रहमान हक्कानी इत्ययं ह्यः काबूलनगरे मन्त्रालयस्य कार्यालये एकस्मिन् प्राणाघातके विस्फोटाक्रमणे मृत्युं प्राप्तवान्। मन्त्रालयस्य प्रवक्तानुसारि एकः आगन्तुकवेषधारी तदा आक्रमणं कृतवान् यदा हक्कानी इत्येषः एकस्मिन् पत्रे हस्ताक्षरं कुर्वन् आसीत्। एतस्मिन् आक्रमणे षड् अन्ये जनाः अपि मारिताः इति सूच्यते। वित्तमन्त्री निर्मला सीतारामन् इत्येषा ह्यः सबलं प्रतिपादितवती यत् वैश्विक शान्तिं पुनः स्थापयितुं विश्वस्य प्रशासनैः उद्योगैः सह मिलित्वा कार्यं कुर्युः इति। वार्ताः।